एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते सुदूरपश्चिमम् विकासस्य नवीन चरणम् नेतुम् संकल्पितम् वर्तते। कञ्चनपुरस्य महेन्द्रनगरवर्तिनः सुदूरपश्चिम विश्वविद्यालयस्य तृतीयम् दीक्षान्त समारोहम् ह्यः सम्बोधयन् प्रधानमन्त्री प्रचण्डः अवोचत् विकासस्य नवीन चरणाय सर्वेषाम् सहयोगः आवश्यको वर्तते। प्रधानमन्त्री प्रचण्डः विश्वविद्यालयस्य शिक्षया न केवलम् औपचारिक्या सैद्धान्तिक्या च अपितु व्यावहारिक्या जीवनोपयोगिन्या समाजस्य रूपान्तरणाय सहयोगिन्या च भाव्यमिति धारणाम् उपस्थापयत्। कतिचित् वर्षेष् विश्वविद्यालयेष् व्यवसाय प्रधानायाः गुणस्तरीयायाश्च उच्चशिक्षायाः प्रदायकस्य राष्ट्रस्यैव प्रतिष्ठित विश्वविद्यालयस्य रूपेण स्थापितो भविष्यतीति आत्मना विश्वसितमिति प्रधानमन्त्री प्रचण्डः अकथयत्। कार्यक्रमे शिक्षा विज्ञान प्रविधि मन्त्री अशोक कुमार राई शिक्षायाः राष्ट्रस्य इतिहास संस्कृतिभ्याम् सह सम्पृक्तयोः मौलिक ज्ञान शिल्पयोः संरक्षणस्य प्रवर्धनस्य च दायित्वम् विश्वविद्यालयस्य अस्तित्व अवोचत। मन्त्री राई अगदत् देशस्य वृत्तिहीनतायाः विपन्नतायाश्च न्यूनीकरणाय सहयोग प्रापणत्वेन विश्वविद्यालयैः भूमिका निर्वोढव्या। कर्णाली प्रदेश सर्वकारे सहभागिभिः नेकपा एमाले दलस्य त्रिभिः मन्त्रिभिः त्यागपत्रम् प्रदत्तम् वर्तते। नेकपा एमाले दलस्य पक्षतः सहभागिनः आर्थिक विषय योजना मन्त्री विनोद कुमार शाह, सामाजिक विकास मन्त्री टेकराज पछाई, वन वातावरण पर्यटन मन्त्री जितबहादुर साई चाह्यो, मुख्यमन्त्रिणः राजकुमार शर्मणः समक्षम् त्यागपत्रम् प्रादुः। बागमती प्रदेशस्य मुख्यमन्त्रिणा शालिकराम जमकट्टेलेन ह्यो मन्त्री परिषद विस्तारिता वर्तते। मुख्यमन्त्री जमकट्टेलः नेपाली कांग्रेस दलस्य पक्षतो बहादुर सिम्मा लामा भिदम आर्थिक विषय योजना मन्त्रिणम्, तीर्थ लामा इत्यमम् च पेयजलोर्जा सिंचन मन्त्रिणम् नियोज्य मन्त्री परिषदम् व्यस्तारयत। प्रदेश प्रमुख यादव चन्द्र शर्मा नवनियुक्त मन्त्रीद्वयम् गत सायमेव पदगोपनीयतयोः शपथम् अग्राहयत्। उपराष्ट्रपति रामसाहेब प्रसाद यादव वदति नेत्रोपचारस्य विस्ताराय सर्वै क्षेत्रैः प्रवर्तितैर्भाव्यम्। नेपाल नेत्र चिकित्सालयस्य स्वर्ण महोत्सवस्य अवसरे ह्य काष्ठमण्डपे आयोजिते समारोहे उपराष्ट्रपति यादव नेत्रोपचार सेवा विशेषतो दुर्गम क्षेत्रेष् इदानीमपि समावयस्य रूपेण विद्यमाना स्थिति हेतोः सर्वकारेण सर्वकारेतर नैज क्षेत्राभ्याम् च सेवा विस्ताराय अतिरिक्तम् प्रयतितव्यमिति प्रत्यपादयत्। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठ कथयति समृद्धेः लक्ष्यम् अधिगन्तुम् सर्वकारः गभीरो वर्तते। तनहुँ जनपदस्य दमौली स्थाने ह्य संचारकर्मीभिः सह असौ अवोचत् वर्तमान कार्यभार आर्थिक समृद्धिर्वर्तते एतदर्थम् सर्वकारः गभीरोऽस्ति। उपप्रधानमन्त्री श्रेष्ठ अर्थतन्त्रे काश्चन समस्याः दृष्टाः सन्तीति चर्चयन् अर्थतन्त्रम् सुस्थितिम् आनेतुम् गभीरेण विमृश्यमानम् अस्तीति अभासत। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति साइबर सुसांख्यीय समस्याम् पश्चात्तन समय सर्वकारेण प्राथमिकतायाम् संस्थाप्य कार्यमग्रे वर्धाप्यमानम् वर्तते। सर्वकारीयैकीकृत तथ्यांक केन्द्रात् विपत्त्युद्धार केन्द्राच्च प्रवाह्यमानायाः सेवायाः सम्बन्धे संघटितायाः उच्चस्तरीय समितेः प्रतिवेदनम् ह्यो मन्त्रालये गृह्णन्ति मन्त्री शर्मा। साइबर सुसांख्यीय सुरक्षायाः विषयस्य आगामी नीति कार्यक्रमेषु आयव्यय के च समावेशनत्वेन कार्यम् विधीयमानमस्तीति अज्ञापयत्। मन्त्री शर्मा सर्वकारी आर्थिक प्रणाली प्रवृत्तिनि समग्र क्षेत्राणि वैद्युत सेवायाम् विस्तीर्णमानानि सन्तीति अवस्थायाम् साइबर सुसांख्यीय सुरक्षा राष्ट्रिय सुरक्षया सम्पृक्तः विषयोऽस्तीत्यतः अत्र सर्वकारेण ध्यानम् केन्द्रीकृतम् वर्तते इति उदैरयत्। कार्यक्रमे मन्त्रालयस्य सचिवः कृष्णबहादुर रावत सर्वासाम् सेवानाम् वैद्युतीकरणम् विद्यमानम् अस्तीति अवस्थायम् एतस्य सुरक्षाया विषये विशेषम् ध्यानम् देयमिति प्रतिपादयन् साइबर सुसांख्य सुरक्षायै प्रतिवेदने उल्लिखिताः विषयाः योजनाम् निर्माय क्रियान्वेष्यन्ते इति प्रावोचत्। प्रतिवेदने सर्वकारीय तथ्यांक केन्द्रस्य संचालनाय मापदण्डस्य निर्धारणम् नीतिगत व्यवस्था संरचनागत व्यवस्था प्रशासकीय संरचनायाः अवस्था तथ्यांक केन्द्रेण अवलम्बनीयो विधि पूर्वाधारस्य विकासः समस्यायाः दीर्घकालिक समाधानं चेत्यादि विषयाः समाविष्टाः सन्ति। भौतिक पूर्वाधार यातायात मन्त्री प्रकाश ज्वाला गदति मुङलिङ पोखरा मार्गस्य विस्तारस्य कार्यम् द्रुतगत्या अग्रे वर्धाप्यते। मुङलिङ पोखरा मार्ग विस्तारा योजनाया ह्य स्थलगत निरीक्षणानन्तरम् दमौली स्थाने संचारकर्मिभिः सह असौ अगदत् मार्गायोजनाया कार्येषु विलम्बनस्य कारणेन एतेषाम् कार्याणाम् द्रुतगत्या अग्रे वर्धापनस्य अवस्था विद्यते। राष्ट्रिय स्वतन्त्र दलेन दलस्य प्रतिनिधि सभा सदस्य डाक्टर ढाका कुमार श्रेष्ठ संचार माध्यमेषु सार्वजनिक भूतस्य दूरभाष संवादस्य विषये चतुर्विंशतेः घण्टानाम् अभ्यन्तरे स्पष्टीकरणं दातुं निर्दिष्टो वर्तते। ह्यो विज्ञप्तिं प्रकाश्य दलस्य महामन्त्री प्रवक्ता च डाक्टर मुकुल ढकालः अनुसन्धानस्य अपूरणं यावत् सांसद श्रेष्ठ दलस्य साधारण सदस्यस्य रूपेण कार्यं न कर्तुं न कारयितुं च निर्दिष्टो स्थिति अवदत्। मन्त्रिणः पदप्राप्तये वित्तं प्रदातव्यं भवतीति संवादस्य विषयम् अनुसन्धाय त्रयाणां दिनानाम् अभ्यन्तरे केन्द्रीय समितो प्रतिवेदनं प्रस्तोतुं दलस्य केन्द्रीयानुशासनाचरण समितिः निर्दिष्टा स्थिति असौ असूचयत्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा कथयति राष्ट्रस्य अर्थतन्त्रस्य संकटग्रस्तावस्थायां प्राप्तो वर्तमान सर्वकारः एव दोषी नास्ति। नेपाली कांग्रेस दलस्य दाङ जनपद शाखया ह्य घोरा स्थाने आयोजितम् प्रथम जनपद सम्मेलनम् सम्बोधयन् महामन्त्री थापा देशे आर्थिक संकटस्य गभीराय माने न केवलम् वर्तमान सर्वकारः अपितु विंशतेः वर्षाणाम् सत्ता सहकारी दलानाम् भूमिकास्थिति धारणाम् व्यक्तवान्। देशस्य राष्ट्रियास्तित्वस्य स्वतन्त्रतायाः लोकतन्त्रस्य च आत्मनः रक्षणस्य कार्यम् कांग्रेस दलेन वितम् अस्तीति तर्कयन् महामन्त्री थापा अतपरम् कांग्रेस दलम् देशस्य अविकसित राष्ट्रात् विकसित राष्ट्रस्य सम्पादनस्य अभियाने अग्रे वर्धितमस्तीति न्यश्चिनोत्। अधिकार दुरूपयोग अनुसन्धानायोगेन रौतड जनपदस्य ईशनाथ नगरपालिकायाः तात्कालिकस्य निमित्त प्रमुख प्रशासकीयाधिकृतस्य नन्दकिशोर गुप्ताभिधस्य विरूद्धे आसन्न सार्धैक कोटितोऽपि अधिकानां रूप्यकाणां भ्रष्टाचरणस्य आरोपे ह्यो न्यायिक प्रकरणं पञ्जीकारितं वर्तते। आयोगेन एककोट्याः एकोनपञ्चाशतो लक्षेभ्यः सप्तनवतेः सहस्रेभ्यश्च रूप्यकेभ्योऽपि अधिक परिमाणस्य हानिवित्तं निश्चित्य काष्ठमण्डपस्थे विशेष न्यायालये भ्रष्टाचार विषयकं न्यायिक प्रकरणं पञ्जीकारितम् इति आयोगस्य प्रवक्त्रा भोला दाहालेन प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। काष्ठमण्डप जनपद न्यायालयेन क्रिकेट क्रीडकस्य सन्दीप लामिछाने भिदस्य विरूद्धस्य बालिका बलात्कारस्य घटनायां बालिकायाः उपचारकात् चिकित्सकात् पुनः प्रकथन विवरण पत्रस्य ग्रहणाय आदिष्टमस्ति। न्यायाधीशस्य शंकरराज बरालस्य न्यायपीठेन ह्य बालिकायाः स्वास्थ्य परीक्षणे संलग्नेन चिकित्सकेन सह जनत्रयात् प्रकथन विवरणं ग्रहीतुम् आदिष्टमिति न्यायालयस्य सूचनाधिकारी दीपक दाहालः अज्ञापयत्। तात्कालिक समये परीक्षकः चिकित्सकः अवकाशे आसीत् तस्य स्थाने अपरस्मात् चिकित्सकात् प्रकथन विवरणं गृहीतमिति दृष्टमित्यतः पुनः प्रकथन विवरण पत्रं ग्रहीतुम् आदिष्टमिति सूचनाधिकारी दाहालः असूचयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन कोरोना विषाणोः संक्रमणं सम्प्रति वर्धमानम् अस्तीत्यतः कोरोना विषाणोः प्रतिरोधी टीकाकरणं आधातुं सर्वे अनुरुद्धाः सन्ति। मन्त्रालयस्य सहप्रवक्ता डाक्टर समीर कुमार अधिकारी संक्रमणं वर्धमानम् अस्तीत्यतः टीकाकरणस्य प्रथम मात्रां द्वितीय मात्राम् अतिरिक्त मात्रां च आधातुं सर्वान् अन्वरुणत् इति समाचाराः।